एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सर्वकारेण भाद्रमासस्य त्रयोविंशे चतुर्विंशे च दिवसयो जेएनजीयूनाम् प्रदर्शनस्य क्रमे सम्भूतायाः भौतिक्याः मानवीयायाश्च क्षतेर्विषये अनुसन्धातुम् संघटितस्य अनुसन्धानायोगस्य समयावधिम् पुनः विंशतिम् दिनानि वर्धयितुम् निर्णीतमस्ति। सीमप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन जेएनजी युववर्गस्य प्रदर्शनस्य क्रमे सम्भूतायाः भौतिक्याः मानवीयायाश्च क्षतेः यथार्थम् अनुसन्धाय प्रतिवेदनं प्रस्तोतुं संघटितस्य आयोगस्य समयावधिं वर्धयितुं निर्णीतमस्तीति गृहमन्त्री ओमप्रकाश आर्यालः असूचयत्। एवमेव मन्त्रिपरिषदः उपवेशेन सिद्धार्थ राजमार्गस्य बुटवल पोखराखण्ड सुधारा योजनायाः पूर्वकार्यस्य कृते ऐषयिक पूर्वाधार निवेशकोषात् प्राप्यमाणाम् 2 मिलियन अमेरिका देशीय डलर मुद्राणाम् अनुदान सहयोगम् स्वीकर्तुम् सर्वकारस्य प्रवक्तृपदे गृहमन्त्रिणम् ओमप्रकाश आर्यालम् निर्धारयितुम् च निर्णीतम् वर्तते। आगामिना फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य कृते मनोनयन पत्रं पञ्जीकारितानां जनानां विरूद्धे अनुसन्धानानन्तरं कैलाली जनपदस्य प्रथम निर्वाचन क्षेत्रात् मनोनयन पत्रं पञ्जीकृतवतः रेशम चौधरीणः प्रत्याशिता निरस्तीकृता स्थिति निर्वाचनायोगेन ज्ञापितं वर्तते। सुनसरी जनपदस्य द्वितीय निर्वाचन क्षेत्रे एकस्य, रौतर जनपदस्य प्रथम निर्वाचन क्षेत्रे एकस्य, भक्तपुर जनपदस्य द्वितीय निर्वाचन क्षेत्रे द्वयोश्च आहत्य चतुर्णाम् जनानाम् विरूद्धे प्रमाणानि न प्राप्तानि सन्तीति आयोगस्य सहायक प्रवक्ता कुलबहादुर जीशी असूचयत्। ह्य सायं सप्तवादने प्रत्याशिनाम् नामावली प्रकाशितास्ति। अद्य प्रातः 10 वादनात् दिवात् 1 वादनम् यावत् प्रत्याशिनाम् नाम्नः प्रत्यावर्तनस्य समय निर्धारितोऽस्ति एवम् अद्य दिवा 1 वादनात् 3 वादनम् यावत् प्रत्याशिनाम् अन्तिमा नामावली प्रकाशयिष्यते। अद्य एव दिवा 4 वादनात् 7 वादनम् यावत् प्रत्याशिभ्यः निर्वाचनचिह्न प्रदानस्य कार्यक्रमो वर्तते इति निर्वाचनायोगेन ज्ञापितमस्ति। अद्य विद्यायाः अधिष्ठात्र्याः सरस्वती देव्याः पूजाराधन पुरस्सरं श्रीपञ्चमी पर्व समायोज्यमानं वर्तते। वसन्तर्तौ समायोज्यते इत्यतः पर्वेदं वसन्त पञ्चमी नाम्ना च आकार्यते। पठनयोग्याभ्यो बालबालिकाभ्यः अक्षरारम्भो विधीयते। एतदवसरे शिक्षार्थी चित्रकार साहित्यकार गायक नर्तकाभिनेतार स्वस्व कला साधनानाम् उपकरणानि पुस्तक पुस्तिका लेखनी वाद्ययन्त्रादीनि च पूजयन्ति। विद्यायाम् साफल्यम् अभिलषताम् विद्यार्थी प्रवृत्ति भक्तजनानाम् विपुल सम्मर्द अद्य प्रत्युषादेव विभिन्नेषु सरस्वती मन्दिरेषु दृश्यते। अद्य भक्तजनैर्विशेषेण सेव्येषु सरस्वती मन्दिरेषु काष्ठमण्डपोपत्यकाया स्वयम्भू लेले नील सरस्वती मन्दिराणि प्रधानानि सन्ति। अस्मिन्नेव दिने बौद्ध धर्मावलम्बिभिश्च विद्यायाः प्रतीकस्य मञ्जुश्री सिद्धस्य चीनदेशतः उपत्यका प्रवेशनस्य दिनं मत्वा हिन्दुभिः सरस्वत्या रूपेण पूजिता मूर्तिम् ज्ञानस्य प्रतीकं सम्बुद्धं प्रकल्प्य पूजा विधीयते इत्यतः अस्माकं समाजे एकाकिनो व्यक्तित्वस्य भिन्नभिन्न नाम्ना पूजाराधनस्य धार्मिक सहिष्णुतायाः अनुपमं प्रचलनं विद्यते। परम्परायाः अनुसारेण अद्यैव काष्ठमण्डपस्य वसन्तपुरस्थिते हनुमद्वार पाशादे महाकविना जयदेवेन लिखितात् गीतगोविन्द काव्याद् वसन्तश्रवणम् विधीयते। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशः अद्य वसति। सानेपा वर्तिनी दल केन्द्रीय कार्यालये अद्य दिवा 1 वादनाय आहुते उपवेशे दलस्य केन्द्रीय कार्य समितेः पदाधिकारिणः सदस्याः प्रदेश सभापतयश्च उपस्थित्यर्थम् आहुताः वर्तन्ते इति दल केन्द्रीय कार्यालयस्य सचिव प्रकाश शर्मा असूचयत्। विशेष महाधिवेशनानन्तरं प्रथमवारं दलस्य उपवेशः केन्द्रीय कार्यालये अद्य उपविश्यमानो वर्तते। पश्चिमवातस्य कारणेन अद्य अपराह्नतः वातावरणं मेघाच्छन्नं भविष्यतीति जलवायु विज्ञान विभागेन ज्ञापितमस्ति। मुख्य रूपेण नेपालस्य पश्चिम क्षेत्रे मेघेन सह मध्यमा वर्षा हिमपातश्च सम्भविष्यन्ति इति विभागेन ज्ञापितमस्ति। विभागस्य जलवायुविद डेविड ढकालः अद्य स्वश्च नेपालस्य पश्चिम क्षेत्रात् गगने जलदस्य स्थिति दृग्गोचरी भवति। सुदूरपश्चिम क्षेत्रस्य कतिपयेषु स्थानेषु सामान्या वर्षा सम्भविष्यन्ति। उच्च पर्वतीय क्षेत्राणां हिमालयीय क्षेत्राणां च कतिपयेषु स्थानेषु मध्यम वर्षा हिमपातश्च सम्भविष्यन्तीति च असूचयत्। स्वशनिश्चरवासरे वातावरणे सुधारे सञ्जातेऽपि जलदस्य प्रभाव आराष्टं भविष्यति, शैत्यं च वर्धिष्यते इति विभागेन ज्ञापितं वर्तते। प्रहरी महानिरीक्षक दानबहादुर कार्की, आसन्न निर्वाचनं भयरहिते निष्पक्ष च वातावरणे सम्पादयितुं विश्वसनीयां सुदृढां च सुरक्षा योजनां निर्माय प्रहरिणः परिचालयितुं निर्दिशति। काष्ठमण्डपस्य नक्सलवर्तिन प्रहरी प्रधान कार्यालयात् श्रव्यदृश्य प्रविधेर माध्यमेन आसन्न निर्वाचनस्य सन्दर्भे अवलम्बनीयाया सुरक्षा संवेदनशीलताया विषये अन्येषु सामयिक विषयेषु च प्रहरी महानिरीक्षक कार्की प्रहरी कर्मचारिण एवं निरदिशत। असौ स्वक्षेत्रे आपराधिक घटना रोद्धुम् आपराधिक गतिविधीनां सूचनां संकलय्य प्रभावकारी सुरक्षा व्यवस्थां विधातुं बलं दत्तवान्। पशुपति क्षेत्र विकास कोषेण अस्य वर्षस्य महाशिवरात्रि पर्वणः पूर्व कार्याणि प्रारब्धानि वर्तन्ते। कोषेण ह्य सार्वजनिक सूचनां प्रकाश्य महाशिवरात्रौ देश विदेशेभ्य आगतानां साधुसज्जनानां भक्तजनानां तीर्थयात्रिणां च कृते निःशुल्क भोजनस्य आवासस्य पेयजलस्य स्वास्थ्यसेवाया स्वयंसेवकानां च परिचालनस्य विषयेषु सेवा प्रदातुम् इच्छुकाः धार्मिक सामाजिक शैक्षिकोद्योगिक संघ संस्थाः प्रतिष्ठानानि च निवेदनं प्रदातुम् आहूतानि सन्तीति कोषस्य सूचनाधिकारी अनिता भट्ट असूचयत। अस्मिन् वर्षे महाशिवरात्रि पर्व आगामिन फाल्गुन मासस्य तृतीये दिवसे रविवासरे समायोक्ष्यमाणं वर्तते। वैतडी जनपदे ट्रैक्टर यानस्य दुर्घटनायां एको जन मृत त्रयो जन आहताः वर्तन्ते। धनगढ़ी स्थानात् दाचुला जनपदं प्रति प्रस्थितं ट्रैक्टर यानं दशचन्द राजमार्गस्य अन्तर्गते पाटन नगरपालिकाया अष्टमवडा क्षेत्रस्य अनारखोली स्थाने ह्य दुर्घटितं। सद महाकाली नगरपालिकाया पञ्चमवडा क्षेत्रस्य गल्फेका स्थानस्य आसन्नैक विंशति वर्षीय ट्रैक्टर यान चालक करण बुढा मगर मृत इति वैतडी जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रहरी निरीक्षक सुरज सिंह अज्ञापयत।